इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रम् अद्य 670तमः गणतंत्र दिवसः आमानयति। अस्मिन् अवसरे मुख्य समारोहः नवदिल्ली स्थिते कर्तव्यपथे आयोज्यते। राष्ट्रपतिः द्रौपदी मुर्मू वर्या गणतंत्र दिवसम् उपलक्ष्य आयोजितेषु कार्यक्रमेषु देशस्य नेतृत्वं करिष्यति। अस्मिन् वर्षे पथ संचलन कार्यक्रमे इण्डोनेशिया देशस्य राष्ट्रपतिः प्रवोवो सुवियान्तो इत्येषः मुख्यातिथित्वेन भागं भजति। गणतंत्र दिवसस्य पथ संचलनं प्रातः 10:30 प्रायः 90 निमेषं यावत् भविष्यति। गणतंत्र दिवसस्य शुभावसरे आरक्षि अग्निशमन गृहरक्षक नागरिक सुरक्षा सेवानां 42,900 संख्यकेभ्यः कर्मिभ्यः वीरता सेवा सम्माने प्रदास्यति। एतेषु पुरस्कृतेषु 95 कर्मचारिणः शौर्यस्य कृते चयनिताः सन्ति। अयं पुरस्कारः जीवनं सम्पत्तिं च रक्षणाय अपराध निवारणं अपराधिनः निगडनाय वा दुर्लभं स्पष्टं च शौर्यस्य च आधारेण प्रदीयते। ततः परं 101,00 विशिष्ट कर्मचारिणः विशिष्ट सेवायाः कृते राष्ट्रपतिपदकेन 47,00 यावत् कर्मचारिणः उत्कृष्ट सेवायै पुरस्कृताः भविष्यन्ति। राष्ट्रपतिपदासीनया द्रौपदी मुर्मू इत्यनया 25,000 कृते 39,00 पद्मपुरस्काराः अनुमोदिताः सन्ति। अस्यां सूच्यां 7 पद्मविभूषणम् 21 पद्मभूषणम् 13,00 पद्मश्री पुरस्काराः च सम्मिलिताः सन्ति। पुरस्कृतेषु 23 महिलाः तथा च सूच्यां वैदेशिक प्रवासी इत्यादि वर्गाणां 10 जनाः अथ च मरणोपरान्त पुरस्कार प्राप्तेषु 13 जनाः अपि सन्ति। भारतीय लेखकः एम.टी. वासुदेव नायरः सुजुकी मोटर कॉर्पोरेशन इत्यस्य पूर्वाध्यक्षः ओसामु सुजुकी गायिका सारदा सिन्हा च मृत्योः पश्चात् पद्म विभूषणेन पुरस्कृताः भविष्यन्ति। गायकः पंकजुदास अर्थशास्त्री विवेक देवरॉयः च मरणोपरान्त पद्मभूषण पुरस्कारेण सम्मानितौ भविष्यतः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सर्वेभ्यः पद्म पुरस्कारेण सम्मानितेभ्यः विशिष्ट जनेभ्यः अभिनन्दनं कृतम्। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे श्रीमोदिना प्रोक्तं यत् भारतं तेषाम् असाधारणोपलब्धिनां सम्मानं च कृत्वा गर्वम् अनुभवति। तेषां समर्पणं धैर्यं च यथार्थतया प्रेरकम् इति सः अवदत्। असौ प्रोक्तवान् यत् एते परिश्रमस्य अनुरागस्य नवीनतायाः च पर्यायाः सन्ति। अद्य गणतंत्र दिवसस्यावसरे महाकुम्भमेलापके भक्ताः पर्यटकाः च भव्य सांस्कृतिक कार्यक्रमाणाम् अवलोकनं करिष्यन्ति। मुख्यायोजनं गंगामण्डपे भविष्यति। अस्माकं संवाददातानुसारि भक्ताः आध्यात्मस्य भारतीय संस्कृतेः देशभक्तेः च संगमस्य अनुभवं करिष्यन्ति। महाकुम्भे चतुर्षु गंगा यमुना सरस्वती त्रिवेणी मण्डपेषु च विविधाः कार्यक्रमाः आयोजिताः भविष्यन्ति। उत्तरप्रदेशस्य सांस्कृति विभागेन आयोजिते कार्यक्रमे शास्त्रीय अर्धशास्त्रीय च प्रदर्शनं भविष्यति, यत् प्रेक्षकान् आध्यात्मिक यात्रायां नेष्यति। पुरुष क्रिकेट क्रीडायां भारत इंग्लैंड देशयोः मध्ये द्वितीया 20-प्रति20 क्रीडायां गतसायं भारतेन इंग्लैंड दलं 2 स्तोभाभ्यां पराजितम्। इति वार्ताः।